चातुतिष्ठस्य कर्मकृ कार्यते अवश्य कर्म सर्व प्रकृति चैर्गुणै कर्मेन्द्रियाणि संयम्य याते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचार सोच्यते कृष्णार्जुन संवादे कर्मयोगो नाम।